ॐ श्री परमात्मने नमः। अथ चतुर्दश अध्याय। श्री भगवान उवाच, परम भूय प्रवक्ष्यामि ज्ञानानां ज्ञानमुत्तमं यज्ज्ञात्वा मुनयः सर्वे परां सिद्धिमितो गतः। इदं ज्ञानमुपाश्रित्य मम सा धर्ममागता। सर्गेऽपि नोपजायन्ते प्रलये न व्यथन्ति च। मम यो निर्महद्ब्रह्म तस्मिन् गर्भं ददाम्यहं। संभवः सर्वभूतानां ततो भवति भारत। सर्वयोनिषु कौन्तेय मूर्तयः संभवन्ति यः। तासां ब्रह्म महद्योनिरहं बीजप्रदः पिता। सत्त्वं रजस्तम इति गुणा प्रकृति संभवः। निबध्नन्ति महाबाहो देहे देहीनमव्ययं। तत्र सत्त्वं निर्मलत्वात् प्रकाशकमनामयं। सुखसंगेन बध्नाति ज्ञानसंगेन चानग। रजो रागात्मकं विद्धि तृष्णासंगसमुद्भवं। तन्निबध्नाति कौन्तेय कर्मसंगेन देहिनं। तमस्त्वज्ञानजं विद्धि मोहनं सर्वदेहिनां। प्रमादालस्य निद्राभि स्तन्निबध्नाति भारत। सत्त्वं सुखे संजयति रजः कर्म निवारत। ज्ञानमावृत्य तु तमः प्रमादे संजयत्युत। रजस्तमश्चापि भूय सत्त्वं भवति भारत। रजः सत्त्वं तमश्चैव तमः सत्त्वं रजस्तथा। सर्वद्वारेषु देहेऽस्मिन् प्रकाश उपजायते। ज्ञानं यदा तदा विद्यात् विवृद्धं सत्त्वमित्युत। लोभः प्रवृत्तिरारम्भः कर्म नाम समस्पृहा। रजस्येतानि जायन्ते विवृद्धे भरतर्षव। अप्रकाशो प्रवृत्तिश्च प्रमादो मोह एव च। तमस्येतानि जायन्ते विवृद्धे कुरुनन्दन। यदा सत्त्वे प्रवृद्धे तु प्रलयं याति देहभृत्। तदुत्तमविदां लोकान् अमलान् प्रतिपद्यते। रजसि प्रलयं गत्वा कर्मसङ्गी सुजायते। तथा प्रलीनस्तमसि मूढयोनि सुजायते। कर्मणः सुकृतस्याहु सात्विकं निर्मलं फलं। रजसस्तु फलं दुःखम् अज्ञानं तमसः फलं। सत्त्वात् सञ्जायते ज्ञानं रजसो लोभ एव च। प्रमादो मोहौ तमसो भवतो ज्ञानमेव च। ऊर्ध्वं गच्छन्ति सत्त्वस्था मध्ये तिष्ठन्ति राजसा। जगन्यगुणवृत्तिस्था अधो गच्छन्ति तामसा। नान्यं गुणेभ्यः कर्तारं यदा द्रष्टानुपश्यति। गुणेभ्यश्च परं वेत्ति मद्भावं सोऽधिगच्छति। गुणानेतानतित्यत्रिन् देहे देहि समुद्भवान्। जन्ममृत्युजरा दुःखैर्विमुक्तो मृतमश्नुते। अर्जुन उवाच, कैर्लिङ्गैस्त्रीन् गुणानेतान् अतीतो भवति प्रभो। किमाचारः कथं चेतां स्त्रीन् गुणानति वर्तते। श्रीभगवान् उवाच, प्रकाशं च प्रवृत्तिं च मोहमेव च पाण्डव। न द्वेष्टि संप्रवृत्तानि नवनिवृत्तानि काङ्क्षति। उदासीनवदासीनो गुणैर्यो न विचाल्यते। गुणावर्तन्त इत्येव योव तिष्ठति नेङ्गते। समदुःखसुखस्वस्थ समलोष्टास्मकाञ्चन। तुल्यप्रियाप्रियोधीर स्तुल्यनिन्दात्मसंस्तुतिः। मानापमानयोस्तुल्य स्तुल्यो मित्रारिपक्षयोः। सर्वारम्भपरित्यागी गुणातीतः स उच्यते। मां च यो व्यभिचारेण भक्तियोगेन सेवते। सगुणान् समतीत्येतान् ब्रह्मभूयाय कल्पते। ब्रह्मणो हि प्रतिष्ठाहम् अमृतस्याव्ययस्य च। शाश्वतस्य च धर्मस्य सुखस्यैकान्तिकस्य च। ॐ तत्सदिति श्रीमद्भगवद्गीतासु उपनिषत्सु ब्रह्मविद्यायां योगशास्त्रे श्रीकृष्णार्जुनसंवादे गुणत्रयविभागयोगो नाम चतुर्दशोऽध्यायः।